अथ श्रीरामभुजङ्गप्रयातस्तोत्रम् विशुद्धं परं सच्चिदानन्दरूपं गुणाधारमाधारहीनवरेण्यं महान्तं विभान्तं गुहान्तं गुणान्तं सुखान्तं स्वयं धाम रामं प्रपदे शिवं नित्यमेकं विभुन्तारकाख्यं सुखाकारमाकार शून्यं सुमान्यं महेशं कलेशं सुरेशं परेशं नरेशं निरीशं महेशं प्रपदे यदा वर्णयत्कर्णमूलेऽन्तकाले शिवो राम रामेति रामेति काश्यां तदेकं परन्तारकब्रह्मरूपं भजेहं 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 भजेहम् महारत्नपीठे शुभे कल्पमूले सुखासीनमादित्यकोटे प्रकाशं सदा जानकी लक्ष्मणोपेतमेकं सदा रामचन्द्रं भजेहं भजेहम् क्वणरत्नमयीजीरपादारविन्दल् लसन्मेखलाचारुपीताम्बराढ्यन् महारत्नहारोल्लसत् कौस्तुभाङ्गन् नदच्चैचरीमयीजरीलोलमालम् लसच्चन्द्रिकास्मेरशोणाधराभं समुद्यत् पतङ्गेन्दुकोटे प्रकाशं नमद्ब्रह्मरुद्रादिकोटीरत्नस्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम् पुरः प्रायजलेनाय जनेयादिभक्तान् स्वचिन्मुद्रया भद्रया बोधयन्तं भजेहं भजेहं सदा रामचन्द्रन् त्वदन्यं न मन्ये न मन्ये न मन्ये यदा मत्समीपं कृतान्तसमेत्य प्रचण्ड प्रकोपैर्भटैर्भीषयेन्मां तदा विष्करोषित् त्वदीयं स्वरूपं सदापत् प्रणाशं सकोदण्डबाणम् निजे मानसे मन्दिरे सन्निधेः प्रसीद प्रसीद प्रभो रामचन्द्रः ससौमित्रिणा कैकयीनन्दनेन स्वशक्त्यानुभक्त्या च संसेव्यमाना स्वभक्ताग्रगण्यैक् कपीशैर्महीशैरनीकैरनेकैश्च राम प्रसीद नमस्ते नमोऽस्त्वीश राम प्रसीद प्रसादि प्रसादि प्रकाशं प्रभो माम् त्वमेवासि दैवं परं मे यदेकं सुचैतन्यमेतत् त्वदन्यं न मन्ये यतो भूदमेयौ वियद्वायुतेजो जलोर्व्याधिकार्यै चरै चाचरै च नमः सच्चिदानन्दरूपाय तस्मै नमो देवदेवाय रामाय तुभ्यं नमो जानकी जीवितेशाय तुभ्यं नमः पुण्डरीकाय ताक्षाय तुभ्यं नमो भक्तियुक्तानुरक्ताय तुभ्यं नमः पुण्यपुञ्जैकलभ्याय तुभ्यं नमो वेदवेद्याय चार्याय पुंसे नमः सुन्दरायेन्दिरावल्लभाय नमो विश्वकर्त्रे नमो विश्वहर्त्रे नमो विश्वभोक्त्रे नमो विश्वमात्रे नमो विश्वनेत्रे नमो विश्वजेत्रे नमो विश्वपित्रे नमो विश्वमात्रे नमस्ते नमस्ते समस्त प्रपञ्च प्रभोग प्रयोग प्रमाण प्रवीण मदीयं मनस्त्वत् पदद्वन्द्वसेवा विधातुं प्रवृत्तं सुचैतन्यसिद्ध्यै शिलापित्वदङ्घ्रिक्षमासङ्गिरेणु प्रसादादिचैतन्यमाधतरामः नरस्त्वत्पदद्वन्द्वसेवाविधानात् सुचैतन्यमेतीति केचेत्रमत्र पवित्रै चरित्रौ विचित्रं त्वदीयं नराये स्मरन्त्यन्वहं रामचन्द्रः भवन्तं भवान्तं भरन्तं भजन्तो लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते स पुण्यः स गण्यः शरण्यो ममायन् नरो वेदयो देवचूडामणिं त्वां सदाकारमेकै चिदानन्दरूपं मनोवागम्यं परन्धाम राम प्रचण्ड प्रताप प्रभावाभिभूत प्रभूतारिवीर प्रभो रामचन्द्रः बलन्ते कथं वर्ण्यतेतीव बाले यतो खण्डि चण्डीश को दण्ड दण्डः दशग्रीवमुग्रं सपुत्रं समित्रं सरिद्दुर्गमध्यस्थरक्षो गणेशं भवन्तौ विनाराम वीरो नरो वा सुरो वामरो वा जयेत् कस्त्रिलोक्याम्। सदा राम रामेति रामामृतन्ते सदा राममानन्दनिष्यन्दकन्दं पिबन्तन्नमन्तं सुदन्तं हसन्तं हनूमन्तमन्तर्भजेतन्नितान्तम्। सदा राम रामेति रामामृतन्ते सदा राममानन्दनिष्यन्दकन्दं पिबन्नन्वहन्नन्वहन्नैव मृत्योर्बिभेमि प्रसादान् सादातवैव। असीता समेतैरको दण्डभूषै रसौमित्रिवन्द्यैरचण्डप्रतापैः अलङ्केशकालै रसुग्रीवमित्रैररामाभिधेयै रलन्दैवतैर्नः अवीरासनस्थैरचिन्मुद्रिकाढ्यै रभक्ताय जनेयादि तत्त्वप्रकाशैः अमन्दारमूलैरमन्दारमालै ररामाभिधेयै रलन्दैवतैर्नः। असिन्धुः प्रकोपैरवन्द्यप्रतापैरबन्धुः प्रयाणैरमन्दस्मिताढ्यैः अदण्डप्रवासैरखण्डप्रबोधैररामाभिधेयै रलन्दैवतैर्नः। हरे राम सीतापते रावणारे खरारे मुरारे सुरारे परेति लपन्तन्नयन्तं सदा कालमेवं समालोकयालोक याशेषबन्धो। नमस्ते सुमित्रा सुपुत्राभिवन्द्य नमस्ते सदा कैकयी नन्दनीड्य नमस्ते सदा वानरा धीशवन्द्य नमस्ते नमस्ते सदा रामचन्द्रः। प्रसीद प्रसीद प्रचण्ड प्रताप प्रसीद प्रसीद प्रचण्डारिकाल प्रसीद प्रसीद प्रपन्नानुकम्पिन् प्रसीद प्रसीद प्रभो रामचन्द्रः। भुजङ्ग प्रयातं परं वेदसारं मुदा रामचन्द्रस्य भक्त्या स नित्यं पठन् सन्ततै चिन्तयन् स्वान्तरङ्गे स एव स्वयं रामचन्द्रसधन्यः। इति श्रीमच्छंकर भगवत पाद विरचितं श्रीराम भुजंग प्रयात स्तोत्रं सम्।